गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्च वत्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सेदसाधनम् प्रणो देवी सरस्वती वाजिनीवते धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूवते धनुः शिवाचरव्यायातवतया नो रुद्रमृडया या ते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिजागसि यामिषुम् गिरिशम् तहस्तेऽभिभर्षत्तवे शिवाङ्गिरित्रताम् कुरु माहि कुंसिः पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमनासत् अद्य वोचदधिवक्ता प्रथमो देव्योऽभिषक् अहेकश्च सर्वाजम्भगिन् सर्वाश्च यातु धान्यः असौ व्यस्ताम्रो अरुण उत बभ्रुत्सु मङ्गलः ये चेवागुम् रुद्रा अभितो धिक्षुत्रितात् सहस्रशो वैशागुम् हेडयीमहे असव्यो वतर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधोगे अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्जधन्वनस्त्वमुभयोरात्रियोर्जाम् याश्च देहस्थ इषवपराता भगवो वपा अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु धे निषेव्य शल्याढा मुखा शिवो न सुमना भव विज्यम् धनु कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येष व आभुरस्य निशम् गतिः जाते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयात्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानाततय धृष्टवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो खेतिरस्मान् वृणक्तु विश्वतः अधो यशुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्धकाय ఛత్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సత్కింజలాయ ద్విషీమతే పధీనాం పతయే నమో నమో. బబ్లుషాయ వ్యాధినేన్నానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టాణాం పతయే నమో నమో. భవస్య హేత్రే జగతాం పతయే నమో నమో. రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమః. సూతాయాహంత్యాయవనానాం పతయే నమో నమో. రోహితాయస్తపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే పారివస్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయాక్రందయతే పత్తీనాం పతయే నమో నమ. కృత్స్నవేతాయ ధావతే సత్వనాం పతయే నమః. నమస్సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ. కకుభాయ నిషంగిణే సేనానాం పతయే నమో నమో. నిషంగిణ ఇషు ధిమతే తస్కరాణాం పతయే నమో నమో. వంజతే పరివంజతే స్థాయూనాం పతయే నమో నమో. నిచేరవే పరిచరాగ్యారణ్యానాం పతయే నమో నమ. శ్రీకావిభ్యోజికాగుం సద్భ్యోముష్ణతాం పతయే నమో నమో. శ్రీమద్భ్యో నక్తం శరద్య ప్రకృంతానాం పతయే నమో నమ. ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ. ఇషుమద్భ్యో ధన్వా విభ్యశ్చ వో నమో నమ. ఆతన్వానేభ్య ప్రదిదధానేభ్యశ్చ వో నమో నమ. ఆగచ్చద్భ్యో విసృజద్భ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ. ఆసీనేభ్య శయానేభ్యశ్చ వో నమో నమ. స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ. తిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో నమ. సభాభ్య సభాపతిభ్యశ్చ వో నమో నమో. అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినీభ్యో వివిధ్యంజేభ్యశ్చ వో నమో నమ. ఉగణాభ్యస్తృగుంహదేభ్యశ్చ వో నమో నమో. ఘృత్సేభ్యో ఘృత్సవదిభ్యశ్చ వో నమో నమో. ప్రాతేభ్యో ప్రాతపదిభ్యశ్చ వో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో. మహద్భ్యః క్షుల్లకేభ్యశ్చ వో నమో నమో. రథిభ్యో రథేభ్యశ్చ వో నమో నమో. రథేభ్యో రథపదిభ్యశ్చ వో నమో నమ. సేనాభ్యసేనానిభ్యశ్చ వో నమో నమ. క్షత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమ. ಪ್ರತ್ಯಕ್ಷಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಇಷುಕೃದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಶ್ವಭ್ಯಶ್ವಪದಿಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ತ್ಯುಪ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿಭಿಷ್ಟಾಯ ಚ ನಮೋ ಮೀಡುಷ್ಟಮಾಯ ಚೇಷು ಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ಬಾಬ್ಬನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ಪರ್ಶೇಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧ್ವನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚಾಜಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮಃ ಓರ್ವ್ಯಾಯ ಚ ವಸ್ವನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೀಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಬುದ್ಧಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸದ್ಯಾಯ ಚ ನಮೋ
ಯಾಂದ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮ
ಉರ್ಭದ್ಯಾಯ ಚ ಖಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚ ವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷ್ಯಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇಣಾಯ ಚಾಶುರಧಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚ ವಬಿಂದದೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರುಧಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಕನನ್ಯಾಯ ಚ ನಮೋ ಧೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷು ಧಿಮತೇ ಚ ನಮಃ ತೇಕ್ಷ್ಣೇಷವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಸುಧನ್ವನೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪಥ್ಯಾಯ ಚ ನಮಃ ಕಾಟ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋದ್ಯಾಯ ಚ ಸರಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಶಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವರ್ಷ್ಯಾಯ ಚ ವರ್ಷ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಈದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಭಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ತಾಮ್ರಾಯ ಚ ಋಣಾಯ ಚ ನಮಃ ಶಂಗಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮಃ ಉಗ್ರಾಯ ಚ ಭೀಮಾಯ ಚ ನಮೋ ಅಗ್ರೇ ಬಧಾಯ ಚ ದೂರೇ ಬಧಾಯ ಚ ನಮೋ ಹಂತ್ರೇ ಚ ಹನೀಯಸೇ ಚ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ
ಹರಿಕೇಶೇಭ್ಯೋ ನಮಸ್ತಾರಾಯ ನಮಃ ಶಂಭವೇ
ಚ ಮಯೋ ಭವೇ ಚ ನಮಃ ಶಂಕರಾಯ ಚ ಮಯಸ್ಕರಾಯ ಚ ನಮಃ ಶಿವಾಯ ಚ ಶಿವತರಾಯ ಚ ನಮಃ ತೀರ್ಥ್ಯಾಯ ಚ ಕೋರ್ಯಾಯ ಚ ನಮಃ पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च
नाद्याय च नमः षष्ट्याय च
भेन्याय च नमः सिकत्याय च प्रवार्याय च नमः गिरिण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ट्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्व्याय च सोर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय च भिग्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो
नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमे
भत्केभ्यः द्रापे अन्धसस्पदे दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाह भेषजे शिवा रुद्रस्य भेषजेतया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे च दुष्पदे विश्वम्बुष्ट ग्रामे अस्मिन्ननादुरम् मृडानो रुद्रोतनो मयत्कृदिक्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुराय जे पिता ततश्यामतवरुद्रप्रणीतो मानो महान्तमुदमानो अर्भगम् मान उक्षन्तमुदमान उक्षितम् मानो वधे पितरम् मोद मातरम् प्रियामान तनुवो रुद्ररीरिषः मानस्तोकेतन एमान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रमामिदो वधेर्हविष्मन्तो नमसा विधेमते आराते गोग्रहुत पूरुषग्ने क्षयद्वीरायसुम् नमस्मे ते अस्तु रक्षाजनो अतिजदेव ब्रूयता जनश्चर्म यच्छद्विबरुहाः सुहिश्रुतङ्गर्थसतम् युवानम् मृगन्न भीममुपहत्रुमुग्रम् मृडा चरिद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य केतद्वृणक्तु परिद्वेषस्य दुर्मदिरघायोः अवस्थिरामकवद्व्यस्तनुष्वमीडत्तोकायतनयाय मृडया
मीडुष्टम शिव तम शिवो न सुमना भव परमे वृक्ष आयुधन् निधाय कृत्तिम् वसा न आचर पिनाकम् विप्रदागहे विकीर्ण विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम्
हेतयोऽन्यमस्मन्निव बन्धुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवपराचीनामुखाकृते सकत्राणि सकत्रशो ये रुद्रा अधिभूम्या तेषागुम् सकत्रयोजने बधन्वानि तन्मथे अस्मिन्महत्यर्णवे इन्दरिक्षे भवाधे नीलग्रीवाचिति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाचिति कण्ठादिवगुम् रुद्रा उपस्थिताः ये वृक्षेषु तत्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विजिकासक्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थाणि प्रचरन्ति श्रृगावन्दो निषङ्गिणः ययेतावन्दश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुंसकत्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शावन्नम् वातो वरुषमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेशेर्दशो देशेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् विश्वो यच्च नो द्वेष्टितम् वोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्रव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्द्विषु सुधन्वायो विश्वस्य क्षगतिभेषजस्य यक्ष्वा महेतो मनसाय रुद्र नमो विर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगो शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ शञ्च मे मयच्च मे प्रियम् च मेणु कामच्च मे कामच्च मे सौ मनसच्च मे भद्रम् च मे श्रेयश्च मे वत्यश्च मे यजश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे तीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शगनम् च मे सुषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः।
ॐ
भद्रं कर्णेभ्यः शृणुयामदेवाः, भद्रं पश्येमाक्षभिर्यजत्राः, स्थिरैरङ्गैः सुष्ठुवागुंसस्तनूभिः, व्यशेम देवहितं यदायुः, स्वस्ति न इन्द्रो वृद्धश्रवाः, स्वस्ति नः पूषा विश्ववेदाः, स्वस्ति नस्ताक्षो हरिष्ठनेमिः, स्वस्ति नो बृहस्पतिर्दधातु। ॐ शान्ति शान्ति शान्तिः। अथ सूर्याथर्वाङ्गिरसंव्याख्यास्यामः। ब्रह्मा ऋषिः गायत्री छन्दः, आदित्यो देवता, हंसः सोऽहमग्निनारायणयुक्तम् बीजम्, हृल्लेखा शक्तिः, वियदादिसर्गसंयुक्तम् कीलकम्, चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः, षट्स्वरारूढेन बीजेन षडङ्गम् रक्ताम्भुजसंस्थितम् सप्ताश्वरथिनम् हिरण्यवर्णम् चतुर्भुजम् पद्मद्वयापयवरदहस्तम् कालचक्रप्रणेतारम् श्रीसूर्यनारायणम् य एवम् वेद स वै ब्राह्मणः। ॐ भूर्भुवस्सुवः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि, धियो यो न प्रचोदयात्। सूर्य आत्मा जगतस्तस्तुषश्च सूर्याद्वैखल्विमानि भूतानि जायन्ते। सूर्या यज्ञः पर्जन्यो नमात्मा, नमस्ते आदित्या, त्वमेव प्रत्यक्षम् कर्म कर्तासि, त्वमेव प्रत्यक्षम् ब्रह्मासि, त्वमेव प्रत्यक्षम् विष्णुरसि, त्वमेव प्रत्यक्षम् रुद्रोऽसि, त्वमेव प्रत्यक्षम् मृगसि, त्वमेव प्रत्यक्षम् यजुरसि, त्वमेव प्रत्यक्षम् सामासि, त्वमेव प्रत्यक्षमथर्वासि, त्वमेव सर्वम् छन्दोऽसि। आदित्याद्वायुर्जायते, आदित्याद्भूमिर्जायते, आदित्यादापो जायन्ते, आदित्याज्योतिर्जायते, आदित्याद्व्योमदिशो जायन्ते, आदित्याद्देवा जायन्ते, आदित्याद्वेदा जायन्ते, आदित्यो वा एष एतन्मण्डलम् तपति, असावादित्यो ब्रह्मा, आदित्यो अन्तःकरणमनो बुद्धिचित्ताहङ्काराः, आदित्यो वै व्यानसमानो दानोपानः प्राणः, आदित्यो वै श्रोत्रत्वक्चक्षुरतनघ्राणाः, आदित्यो वै वाक्पाणिपादपायोपस्थाः, आदित्यो वै शब्दस्पर्शरूपरसगन्धाः, आदित्यो वै वचनादानागमनविसर्गानन्दाः, आनन्दमयो विज्ञानमयो विज्ञानघन आदित्यः। नमो मित्राय भानवे मृत्योर्मा पाहि, ब्राजिष्णवे विश्वहेतवे नमः। सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु,
सूर्येलयम् प्राप्नुवन्ति यः सूर्यः सोऽहमेव च चक्षुर्णो देवः सविता चक्षुर्ण उत पर्वतः चक्षुर्दादा दधातु नः आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्यः प्रचोदयात् सविता पुरस्तात् सविता पश्चात्तात् सवितोत्तरातात् सविता धरातात् सविता नः सुमतु सर्वतात्तिगुम् सविता नो रासताम् दीर्घमायुः ओमित्येकाक्षरम् ब्रह्म गृणिरिति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याक्षरो मनुः यः सदा हरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात् प्रमुच्यते अलक्ष्मीर्नश्यते अभक्ष्यभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति मध्याग्ने सोऽयाभिमुखः पटेत् सद्योत्पन्न पञ्चमहापातकात् प्रमुच्यते सैषा सावित्रीम् विद्याम् न किञ्चिदपि न कस्मैचित् प्रशंसयेत् य एता महाभागः प्रातः पठति स भाग्यवान् जायते पशून् विन्दति वेदात्तम् लभते त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति हस्तादित्यै जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषत् भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्येमाक्षभिर्यशत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनोभिः यशेम देवैः संयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्षो हरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ सहनाभवतु सहनो भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अथ पुरुषो ह वै नारायणो कामयत प्रजा सृजयेति नारायणात् प्राणो जायते मनः सर्वेन्द्रियाणि च खम् वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी नारायणात् ब्रह्मा जायते नारायणाद् रुद्रो जायते नारायणादिन्द्रो जायते नारायणात् प्रजापतयः प्रजायन्ते नारायणाद्वादशादित्या रुद्रावसवः सर्वाणि च छन्दागुंसि
नारायणादेव समुत्पद्यन्ते नारायणे प्रवर्तन्ते नारायणे प्रलीयन्ते ॐ अथ नित्यो नारायणः ब्रह्मा नारायणः शिवश्च नारायणः शक्रश्च नारायणः द्यावा पृथिव्यौ च नारायणः कालश्च नारायणः दिशश्च नारायणः ऊर्ध्वश्च नारायणः अधश्च नारायणः अन्तर्बहिश्च नारायणः नारायण एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् निष्कलो निरञ्जनो निर्विकल्पो निराख्यात शुद्धो देव एको नारायणः न द्वितीयोऽस्ति कश्चित् य एवम् वेद स विष्णुरेव भवति स विष्णुरेव भवति ओमित्यग्रे व्याहरेत् नम इति पश्चात् नारायणायेत्युपरिष्टात् ओमित्येकाक्षरम् नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि एतद्वै नारायणस्याष्टाक्षरम् पदम् यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति अनपभ्रुवः सर्वमायुरेति विन्दते प्राजापत्यगुम्रायस्पोषम् गौपत्यम् ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति य एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इति तानेकदा समभरत्तदेतदोमिति यमुक्त्वा मुच्यते योगी जन्म संसारबन्धनात् ॐ नमो नारायणायेति मन्त्रोपासकः वैकुण्ठभुवनलोकम् गमिष्यति तदिदम् परम् पुण्डरीकम् विज्ञानघनम् तस्माद्दिदावन्मात्रम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो सर्वभूतस्थमेकम् नारायणम् कारणरूपमकारपरब्रह्म एतदथर्वशिरो यो धीते प्रातरधियानो रात्रिकृतम् पापम् नाशयति सायमधियानो दिवसकृतम् पापम् नाशयति माध्यन्दिनमादित्याभिमुखो धियान पञ्चपातकोपपातकात् प्रमुच्यते सर्ववेदपारायण पुण्यम् लभते नारायण सायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति य एवम् वेद इत्युपनिषत् सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः तेजोऽसि तत्ते प्रयच्छामि तेजस्वदस्तु मे मुखम् तेजस्वच्छिरो अस्तु मे तेजस्वान् विश्वतः प्रत्यन् तेजसा सम्पि वृद्धिमा ओजोऽसि तत्ते प्रयच्छामि ओजस्वदस्तु मे मुखम्
ओजस्वच्छिरो अस्तु मे ओजस्वान् विश्वतः प्रत्यन् ओजसासं पिवृद्धिमा पयोति तत्ते प्रयच्छामि पयस्वदस्तु मे मुखम् पयस्वच्छिरो अस्तु मे पयस्वान् विश्वतः प्रत्यन् पयसासं पिवृद्धिमा आयुरसि तत्ते प्रयच्छामि आयुष्वदस्तु मे मुखम् आयुष्वच्छिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यन् आयुषासं पिवृद्धिमा इममग्न आयुषे वर्चसे कृधि प्रियगुम्रेतो वरुण सोमराजन् मा देवा मा अदिते शर्म यच्च विश्वे देवा जलदष्टिर्यथा सत् आयुरसि विश्वायुरसि सर्वायुरसि सर्वमायुरसि यतो वातो मनोजवाः यतः क्षरन्ति सिन्धवः तासां त्वा सर्वासागुं रुचा अभिषिञ्चामि वर्चसा समुद्र इवासि गम्हना सोम इवास्यदाभ्यः अग्निरिव विश्वतः प्रत्यन् सूर्य इव ज्योतिषा विभुः अपाम्यो द्रवणेरसः तमहमस्मामुष्यायनाय तेजसे ब्रह्मवच्रताय गृह्णामि अपाम्य ऊर्मौरसः तमहमस्मामुष्यायनाय ओजसे वीर्याय गृह्णामि अपाम्यो मध्यतोरसः तमहमस्मामुष्यायनाय पुष्पैः प्रजननाय गृह्णामि अपाम्यो यज्ञियोरसः तमहमस्मामुष्यायनाय आयुषे दीर्घायुत्वाय गृह्णामि शान्ति 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 ॐ गणानां त्वा त्वा गणानां गणानां त्वा गणपतिं गणपतिं त्वा गणानां गणानां त्वा गणपतिं त्वा गणपतिं गणपतिं त्वा त्वा गणपतिगुं हवामहे हवामहे गणपतिं त्वा त्वा गणपतिगुं हवामहे गणपतिगुं हवामहे हवामहे गणपतिं गणपतिगुं हवामहे कविं कविगुं हवामहे गणपतिं गणपतिगुं हवामहे कविं गणपतिमिति गण पतिम् हवामहे कविम् कविगुम् हवामहे हवामहे कविम् कवीनाम् कवीनाम् कविगुम् हवामहे हवामहे कविम् कवीनाम् कविम् कवीनाम् कवीनाम् कविम् कविम् कवीनामुपमश्रवस्तवमुपमश्रवत्तमम् कवीनाम् कविम् कविम् कवीनामुपमश्रवत्तमम् कवीनामुपमश्रवत्तममुपमश्रवत्तमम् कवीनाम् कवीनामुपमश्रवत्तमम् उपमश्रवत्तममित्युपमश्रवः तमम् सुरक्तिप्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु
समस्तलोकाः सुखिनो भवन्तु।